श्रीमद् भगवद गीता पंचमोध्याय ओम नमो भगवते वासुदेवाय कर्म संन्यास योग अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्जोगं च संशशि यत् श्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् श्री भगवान उवाच संन्यास कर्मयोगश्च निःश्रेयस कराबुभौ तयस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ज्ञेयः स नित्यसन्न्यासी जो न दृष्टि न काङ्क्षति निर्दण्डो हि महाबाहु सुखं बन्ध्यात् प्रमुच्यते शङ्खयोगो पृथग्बाला प्रवदन्ति न पण्डिता एकमप्यास्थिता सम्यगुभयोर्बृन्दति फलं यत्शङ्खैः प्राप्यते स्थानं तद्योगैरपि गम्यते एकं शङ्खं च योगं च यः पश्यति स पश्यति संन्यासस्तु महाबाहो दुःखमाप्तु मजोगतः योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैनं किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् नरः नन् गच्छन् सपन् शसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन्निमिषन्नपि इन्द्रियानिन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्मण्याध्याय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न सपापेन पद्मपत्र विवाम्भसा कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा आत्मशुद्धये युक्तकर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले शक्तो निबध्यते सर्वकर्माणि मनसा संनश्यास्ते सुखं वशि न बद्धारे पुरे देहि नैव कुर्वन्न कारयन् न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु न कर्म फलसंयोगः योगं स्वभावस्तु प्रवर्तते न दत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मुच्यन्ति जन्तवः ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषाम् आदित्यवज्ञानं प्रकाशयति तत्परं तद्बुद्धय सदात्मानं तन्निष्ठात्तत्परायणः गच्छन्त पुनरावृत्तिं ज्ञाननिर्धूतकल्मषा विद्याविनयसम्पन्ने ब्राह्मणे कविहस्तिनि शुनी चैव सपाके च पण्डिताः समदर्शिनः इहैव तैर्जितः सर्गो येषां सम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः न प्रहिष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियं स्थिरबुद्धिरसङ्गमूढो ब्रह्मणि स्थितः वज्रस्पर्शे सशक्तात्मा विन्दत्यात्मनिजत् सुखं स ब्रह्म योगयुक्तात्मा सुखमक्षयमश्नुते जेहि संस्पर्शया भोगा दुःखजोनय एव ते आद्यन्त बन्त कौन्ते न तेषु रमते बुधा शक्नो कि हैव यः सोढुं प्राक् शरीर विमोक्षनात् काम क्रोधोद भवंग वेगं स युक्ता स सुखी नरः जन्तः सुखोन्तराराम स्तथान्तर्ज्योतिरेव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति लभन्ते ब्रह्मनिर्वाणमृषया क्षीणकल्मषा छिन्नद्वैधा यतात्मानः सर्वभूतहृतिरता कामक्रोधविमुक्तानं यतीनां यतचेतसाम् अभीतो ब्रह्मनिर्वाणं वर्तते विदितात्मनां स्पर्शान् कृत्वा बहिर्वाच्याश्चक्षुश्चैवान्तरे भ्रुवो प्राणपानौ समुकित्ता नासाभ्यन्तर्चारिणो यतेन्द्रियमनोबुद्धिर्मुनिर्मुखपरायणः विगतेच्छा भयक्रोधो जः सदा मुक्त एव स भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरं श्रुतं सर्वभूतानां ज्ञातामां शान्तिमृच्छति इति श्रीमहाभारते शतसहस्रं संहितायां वैयासिकं भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः।